इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिझाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां सेशेल्स देशस्य राष्ट्रपतिना डॉक्टर पैट्रिक हर्मनी इत्यनेन सह वार्तालापं विधास्यति। उभय नेतृभिः द्विपाक्षिक क्षेत्रीय अन्ताराष्ट्रिय विषयेषु परस्पर हित विषयेषु च चर्चा भविता। राष्ट्रपतिः हर्मनी अद्य सायंकाले राष्ट्रपति भवने राष्ट्रपति पदासीनया द्रौपदी मुर्मू वर्यया सह अपि मिल्यात्। भारतस्य पञ्चदिवसीय यात्रावधौ श्रीहर्मनी चेन्नई मुंबई नगरयोः कार्यं विधाय ह्यः नवदिल्लीम् अगमत। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः परीक्षा पे चर्चा इत्यस्य द्वितीय चरणे अशेषे हि देशे छात्रैः सह संवादं करिष्यति। कार्यक्रमः प्रातः दशवादने बहुविध मञ्चेषु प्रसारितो भविष्यति। बोर्ड परीक्षामुद्दिश्य परीक्षायाः अतिचिन्तनं परिहर्तुं सज्जता कार्यनीतिः समयप्रबन्धनम् छात्राणाम् आत्मविश्वासस्य वर्धनम् इत्यादिषु विषयेषु संवादोऽयं भविष्यति। अस्मिन् अध्याये तमिलनाडुराज्यस्य कोयम्बतूरनगरतः छत्तीसगढ़राज्यस्य रायपुरनगरात् गुजरातराज्यस्य देवमोगरानगरात् असमराज्यस्य गुवाहाटीनगरात् च परीक्षायोद्धारः दृश्यन्ते इति प्रधानमन्त्री सामाजिकान्तर्जालीयपटले अवोचत्। परीक्षा पे चर्चा इत्यस्य एतत् प्रकरणं प्रधानमन्त्रिणः नरेन्द्रमोदिनः यूट्यूब वाहिन्यां दूरदर्शने शिक्षामन्त्रालयस्य सामाजिकमाध्यममञ्चेषु च प्रसारितं भविष्यति। अस्य मासस्य षड् दिनांके प्रथमं प्रकरणं प्रसारितम् यस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रश्नानाम् उत्तराणि प्रदत्तानि। प्रतिभागिभिः सह स्नेहपूर्वकं संवादः च विहितः। प्रधानमन्त्रिणा नरेन्द्रमोदिना आतंकवादस्य विषये भारतस्य दृढस्थितिं पुनरुच्चारितम्। कुआलालम्पुरनगरे मलेशियादेशस्य समकक्षीयेण अनवर इब्राहिम इत्यनेन सह विस्तृतं वार्तालापस्य अनन्तरं संयुक्त वार्ताहरसम्मेलने श्रीमोदी अवोचत्। भारत मलेशिया देशयोः मध्ये आतंकवादावरोधः गुप्त सूचनानाम् आदान प्रदानं समुद्रीय सुरक्षायाः रक्षायाः च क्षेत्रेषु सहयोगस्य विस्तारः भविष्यति इति श्रीमोदी अवधानं प्रदत्तवान्। प्रधानमन्त्री अवोचत् यत् भारत मलेशिया देशयोर्मध्ये समुद्रीय प्रतिवेशिनां रूपेण विशेष सम्बन्धः अस्ति, अपि च मलेशिया देशे भारतीय प्रवासीनाम् उपस्थितिः जनेषु दृढसम्बन्धः च वर्तते। प्रधानमन्त्री अवोचत् यत् उभौ देशौ आसियान इत्यनेन सह सम्पूर्णैः क्षेत्रे विकासाय शान्त्यर्थं स्थिरतायै च प्रतिबद्धो स्तः।
हम अपने युवाओं के बीच यूनिवर्सिटी एक्सचेंज, स्टार्टअप कनेक्ट और स्किल डेवलपमेंट के अवसर भी बढ़ा रहे हैं। हमारे बढ़ते संबंधों को सपोर्ट करने के लिए हम मलेशिया में नया कॉन्सुलेट भी खोलने जा रहे हैं।
मलेशिया देशस्य तमिल भाषया सह द्वयोः राष्ट्रयोः मध्ये दृढ़ सांस्कृतिक शैक्षणिक सम्बन्धस्य विषये प्रधानमन्त्री अवदत्। प्रधानमन्त्रिणः मोदिनः मलेशिया देशस्य समकक्षीयेन सह वार्तालापः रक्षा सुरक्षा सम्बन्धान् सुदृढं कर्तुम् आर्थिक नवान्वेषण सहभागितां वर्धयितुं च केन्द्रितः आसीत्। भारत मलेशिया देशयोर्मध्ये अनेकाशां अभिलेखानां सन्धिपत्राणां च आदान प्रदानम् अभवत्। शूटिंग क्रीडायां भारतस्य अर्जुन बाबूता अपि च एलावेनिल वारावीन इत्युभौ नवदिल्लीनगरे 26,2000 वर्षस्य एशियन राइफल चैम्पियनशिप स्पर्धायां 10 मीटर एयर राइफल मिश्रदल स्पर्धायां स्वर्ण पदकं प्राप्तवन्तौ, विश्वकीर्तिमतं च स्थापितवन्तौ। इति वार्ताः।